अथ श्रीमद्भागवते तृतीयस्कन्धे त्रिंशोऽध्यायः देवहूतिरुवाच लक्षणं महदादीनां प्रकृते पुरुषस्य च स्वरूपं लक्ष्यते मीशां येन तत् पारमार्थिकं यथा साङ्ख्येषु कथितं यन्मूलं तत् प्रलक्ष्यते भक्तियोगस्य मे मार्गं ब्रूहि विस्तरश प्रभो विरागो येन पुरुषो भगवन् सर्वतो भवेत् आचक्ष्व जीवलोकस्य विविधा कर्मसंस्कृतिः कालस्येश्वररूपस्य परेषां च परस्य ते स्वरूपं बत कुर्वन्ति यद्धेतो कुशलं जनाः लोकस्य मिथ्याभिमतेरचक्षुषं स्थिरं प्रसुप्तस्य तमः ्यनाश्रये श्रान्तस्य कर्मण्यनुविद्धया धिया समाविरासी किल योगभास्करः मैत्रेय उवाच इति मातोवचः लक्ष्णं प्रतिनन्य महामुनिः आबभाषे कुरुश्रेष्ठ प्रीतस्तां करुणार्दितः श्रीभगवानुवाच भक्तियोगो बहुविधो मार्गै भामिनि भव्यते स्वभावगुणमार्गेण पुंसां भावो विभिद्यते अभिसन्धाय यो हिंसां दम्भं मात्सर्यमेव वा संरम्भी भिन्नदुग्भावं मयि कुर्यात् स्वतामसः विषयानभिसन्धाय यश ऐश्वर्यमेव वा अच्चादावच्चयेद्यो मां पृथग्भावः स राजसः कर्मनिर्हारमुद्दिश्य परस्मिन् वा तदर्पणम् यजेद्यष्टव्यमिति वा पृथग्भावः स सात्विकः मद्गुणश्रुतमात्रेण मयि सर्वगुणाश्रये मनोगति अविच्छिन्ना यथा गङ्गाम्भसोम्भुदौ लक्षणं भक्तियोगस्य निर्गुणस्य हृदाहृतम् अहैतुक्यव्यवहिता या भक्तिपुरुषोत्तमे सा लोक्या षष्टिसामीप्या सारूप्यैकत्वमित्युत दीयमानं न गृह्णन्ति विना मत्सेवनं जनाः एव भक्तियोगाख्य आत्यन्तिक उदाहृतः येनातिव्रजति त्रिगुणान् मद्भावायोपपद्यते निषेवितेन निमित्तेन स्वधर्मेण महीयसा क्रियायोगेन शक्तेन नातिहिंस्रेण नित्यशः मद्धिष्ण्यदर्शनस्पर्शपूजास्तु अभिवन्दनैः भूतेषु मद्भावनया सत्येनासङ्गमेन च महतां बहुमानेन हीनानामनुकम्पया मैत्र्या चैवात्मतुल्येषु यमेन नियमेन च आध्यात्मिकानुश्रवणान्नाम सङ्कीर्तनाच्च मे आजवेनार्यसङ्गेन निरहङ्क्रियया तथा मद्धर्मेण यस्येतैः परिसंशुद्ध आशयः पुरुषस्याञ्जसाध्येति श्रुतमात्रगुणं हि माम् यथा वातरसो घ्राणम् आवृङ्क्ते गन्ध आशयात् एवं योगतं चेत आत्मानमविकार्यत् अहं सर्वेषु भूतेषु भूतात्मावस्थितः सदा तमवज्ञाय मां मर्त्यः कुरुते अच्च विडम्बनम् यो मां सर्वेषु भूतेषु सन्तमात्मानमीश्वरं चित्वार्चां भजते मूढ्यात् भस्मन्येव जुहोति सः द्विशत परकाये माम् मानिनो भिन्नदर्शिनः भूतेषु बद्धवैरस्य नमनः शान्तिमुच्यते अहमुच्चावचैर्द्रव्यैः क्रेयोत्पन्नया नखे नैव तुष्येर्चितोच्चायां भूतग्रामावमानिनः अर्चात् अवर्चयेत् तावत् ईश्वरं मां स्वकर्मकृत् यावन्न वेद स्वहृदि सर्वभूतेष्वस्थितम् आत्मनश्च परस्यापि यः करोत्यन्तरोदरं तस्य भिन्नदृशो मृत्युर्विधत्ते भयमुद्गणम् अथ मां सर्वभूतेषु भूतात्मानं कुतालयम् अर्हयेद्दानमाभ्यां मैत्र्याभिन्नेन चक्षुषा जीवा श्रेष्ठाश्च जीवानां ततः प्राणभृतश्रुभे ततस्तचित्ताः प्रवरास्ततश्चेन्द्रियवृत्तयः अत्रापि स्पर्शवेदिभ्यः प्रवरारसवेदिनः तेभ्यो गन्धविदश्रेष्ठस्ततः शब्दविदो वराः रूपभेदविदस्तत्र ततश्चोभयतोरः तेषां बहुपदश्रेष्ठश्चतुष्पादस्ततो द्विपात् ततो वर्णासु चत्वारस्तेषां ब्राह्मण उत्तमः ब्राह्मणेष्वपि वेदज्ञो ह्यर्थज्ञो ्यधिकस्ततः अर्थज्ञा संशयच्छेत ततश्रेयान् स्वधर्मकृत् मुक्तसङ्गस्ततो भूयान्न दोग्धा धर्ममात्मनः तस्मान् यत्पिता शेष क्रियार्थात्मा रतिर्नरः मय्यर्पितात्मनः पुंसो मयि संन्यस्तकर्मणः न पश्यामि परम्भूतम् अकर्तुः समदर्शिनः मनसैतानि भूतानि प्रणमे बहुमानयन् ईश्वरो जीवकलय प्रविष्टो भगवानिति भक्तियोगश्च योगश्च मया मानव्युदाहृतः ययोरेकतरेणैव पुरुष पुरुषं व्रजेत् यद्तद्भगवतो रूपं ब्रह्मणपरमात्मनः परं प्रधानात् पुरुषात् दैवं कर्म विचेष्टितम् रूपभेदास्पदं दिव्यं कालैत्यभिधीयते भूतानां महदादीनां यतो भिन्ना दृशां भयम् योऽन्तःप्रविश्य भूतानि भूतैरत्यखिलाश्रयः विष्णाख्यो धिया ज्ञेयः काल कलयतां प्रभुः न चास्य कश्चिद्दयितो न द्वेष्यो न च बान्धवः आविशत्यप्रमत्तोऽसौ प्रमत्तं जनमन्तकृत् यद्भयात् वातिवातोऽयं सूर्यस्तपति यद्भयात् वशते देवो भगणो भाति यद्भयात् यद्वनस्पतयो भीता लतास्तौषधिभिः सह स्वे स्वे काले हि गृह्णन्ति पुष्पाणि च फलानि च श्रवन्ति सरितो भीता नो सत्पत्युदधिर्यदः अग्निरिन्धे सगिरिभिर्भूर्णमज्जति यद्भयात् नभो ददाति स्वशतां मार्गं यन्नियमाददः लोकस्य देहं तनुते महान् सप्तभिरावृतः गुणाभिमानिनो देवाः सर्गादिष्वस्य यद्भयात् वर्तन्तेनु युगं येषां वशयेतच्चराचरम् सोऽनन्तोऽन्तकरः कालो अनादिरादिकृद् अव्ययः धनं जनेन जनयन् मारयन् मृत्युनात्मना श्रीमद्भागवते तृतीयस्कन्धे त्रिंशोऽध्यायः सम्पूर्णं श्रीकृष्णार्पणमस्तु।